ओम नमो भगवते वासुदेवाय। अथ पञ्चसप्ततितमोऽध्यायः। राजोवाच, अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयं सर्वे मुमुदिरे ब्रह्मन् ऋदेवाये समागताः। दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः। इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम्। ऋषिरुवाच, पितामहस्य ते यज्ञे राजसूये महात्मनः, बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः। भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः, सहदेवस्तु पूजायां नकुलो द्रव्यसाधने, गुरुशुश्रूषणे जिष्णुः, कृष्णः पादावने जने, परिवेषणे द्रुपदजा, कर्णो दाने महामनाः। युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः, बाल्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः। निरूपिता महायज्ञे नानाकर्मसु ते तदा, प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः। ऋत्विक् सदस्य बहुवित्सु सुरित्तमेषु, स्विष्टेषु सुण्डित समर्हण दक्षिणाभिः, चैद्ये च सात्वतपतेश्चरणं प्रविष्टे, चक्रुस्ततस्त्ववभृतस्नपनं द्युनद्याम्। मृदङ्गशङ्खपणवधुन्दुर्यानकगोमुखाः, वादित्राणि विचित्राणि नेदुरावभृथोत्सवे, नर्तक्यो नृतुर्हृष्टा गायका यूथसो जगुः, वीणा वेणुतलोन्नादस्तेषां सदिवमस्पृशत्। चित्रध्वजपताकाग्रैर्भेन्द्रस्यन्दनार्वभिः, सलङ्कृतैर्भटैर्भूपा निर्ययूरुक्ममालिनः, यदुसृञ्जय काम्बोज कुरुकेकयकोसलाः, कम्पयन्तो भुवं सैन्यैर्यजमानपुरःस्तराः। सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा, देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः, स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः, विलिम्पन्त्योऽभिषिञ्चन्त्यो विजर्रुर्विविधैरसैः, तैलगोरसगन्धोद हरिद्रा सान्द्रकुङ्कुमैः, पुम्भिर्लिप्ता प्रलिम्पन्त्यो विजर्रुर्वारयोषितः, गुप्तान्द्रिभिर्निरगमन्नुपलब्धुमेतत् देव्यो यथा दिवि विमानवरैर्नृदेव्यः, तामातुलेयसखिभिः परिशिच्यमानाः, सव्रीडः सविकसद्वदना विरेजुः, तादेवरानुतसखीन् शिशुशुर्धृतीभिः, कृन्नाम्बरा विवृतगात्रकुचोरुमध्याः, औत्सुक्यमुक्तकबराच्यवमानमाल्याः, क्षोभं दधुर्मलधियां रुचिरैर्विहारैः, स सम्राट् रथमारूढः सदस्वं रुक्ममालिनम्, व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव, पत्नीसंयाजावभृत्यैश्चरित्वा ते तमृत्विजः, आचान्तं स्नापयाञ्चक्रुर्गङ्गायां सह कृष्णया, देवदुन्दुभयो नेदुर्नरदुन्दुभिः समम्, मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः, सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः, महापातक्यपि यतः सद्यो मुच्येत किल्बिषात्। अथ राजा हते क्षौमे परिधाय स्वलङ्कृतः, ऋत्विक् सदस्य विप्रादीनानर्चा भरणाम्बरैः, बन्धुज्ञातिनृपान् मित्रसुहृदोऽन्यांश्च सर्वशः, अभीक्ष्णं पूजयामास नारायणपरो नृपः, सर्वे जनाः सुररुचो मणिकुण्डलस्रग् उष्णीषकञ्चुकदुकूलमहार्घ्यहाराः, नार्यश्च कुण्डलयुगालकवृन्दजुष्ट वक्त्रश्रियः कनकमेखलया विरेजुः। अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः, ब्रह्मक्षत्रियविक्षूद्रा राजानो ये समागताः, देवर्षिपितृभूतानि लोकपालाः सहानुगाः, पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप। हरिदासस्य राजर्षे राजसूयमहोदयं नैवातृप्यन् प्रशंसन्तः, पिबन्मर्त्यो मृतं यथा, ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् प्रेम्णा निवासयामास कृष्णं च त्यागकातरः। भगवानपि तत्राङ्गन्यवात्सीत्तत्प्रियङ्करः, प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम्। इत्थं राजा धर्मसुतो मनोरथमहार्णवम् सुदुस्तरं समुत्तीर्य कृष्णेनासीत् गतज्वरः। एकदान्तः पुरे तस्य वीक्ष्य दुर्योधनः श्रियम्। अतप्यत्राजसूयस्य महित्वं चाच्युतात्मनः यस्मिन् नरेन्द्र दितिजेन्द्र सुरेन्द्र लक्ष्मीर् नाना विभान्ति किल विश्वसृजोपक्लृप्ताः ताभिः पतीन् द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराजतप्यत् यस्मिंस्तदा मधुपतेर्महिषी सहस्रम् श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् मध्ये सुचारुकुचुकुङ्कुमशोणहारम् श्रीमन्मुखम् प्रचलकुण्डलकुन्तलाढ्यम् सभायाम् मय क्लृप्तायाम् क्वापि धर्मसुतोऽधिराट् वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा आसीनः काञ्चने साक्षादासने मघवानिव पारमेष्ठ्यश्रिया दुष्टः स्तूयमानश्च वन्दिभिः तत्र दुर्योधनो मानी परितो भ्रातृभिर्नृप किरीटमालिन्यविशद् असिहस्तः क्षिपन्रुषा स्थलेभ्य गृह्णाद्वस्त्रान्तम् जलम् मत्वा स्थले पतत् जले च स्थलवद्भ्रान्त्या मयमाया विमोहितः जहास भीमस्तम् दृष्ट्वा स्त्रियो नृपतयोपरे निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः सव्रीडितो वाग्वदनोरुषा ज्वलन् निष्क्रम्य तूष्णीम् प्रययौ गजाव्वयम् हाहेति शब्दः सुमहानभूत् सता न जात शत्रुर्विमना इवाभवत् बभूव तूष्णीम् भगवान् भुवो भरम् समुज्जिहीर्षुर्भ्रमति स्म यदृशा एतत्ते विहितम् राजन् यत्पृष्टोऽहमिह त्वया सुयोधनस्य दौरात्म्यम् राजसूये महाकृतौ ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।